पञ्चाकल्प करोद्धस्य पिपासं भैवचां पतितानां पावनेभ्यः वैष्णवेभ्यः नमो नमः।